एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा 63-अधिक-2000 वैक्रमाब्दम् नेपाल नागरिकताधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् प्रतिनिधिसभायाम् प्रतिप्रेषितम् वर्तते। राष्ट्रपतिना भण्डारिणा नेपालस्य संविधानस्य अनुसारेण नागरिकता प्राप्ति सम्बद्ध विषय संघीय संसदा पुनर्विचारणम् आवश्यकम् दृष्टमिति हेतोः विधेयकमेतत् प्रतिनिधिसभायाम् प्रतिप्रेषितम् इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। राष्ट्रपतिना भण्डारिणा प्रतिनिधिसभायाः सभामुखेन प्रमाणितं विधाय नेपालस्य संविधानस्य 73-अधिक-100 धारायाः द्वितीयोपधारायाः अनुसारेण प्रमाणीकरणाय प्रस्तुतं विधेयकमिदं नेपालस्य संविधानस्य 73-अधिक-100 धारायाः तृतीयोपधारायाः अनुसारेण ससन्देशं प्रतिप्रेषितम् अस्तीति विज्ञप्तौ उल्लिखितं वर्तते। सर्वकारेण सर्वेषाम् राष्ट्रसेवक कर्मचारिणाम् नवीन वेतनमानम् श्रेणी च स्वीकृते स्तः। अस्यैव श्रावणस्य 26 दिवसे उपवेष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की सर्वेषाम् राष्ट्रसेवक कर्मचारिणाम् एतद् विक्रम वर्षस्य श्रावणस्य प्रथम दिवसात् क्रियान्वयनत्वेन वेतनमानम् श्रेणीं च स्वीकर्तुम् निर्णीतम् इति अज्ञापयत्। उपवेशेन विश्वकोषात् हरितस्य उत्पादनशीलस्य समावेशिनश्च विकासस्य कृते प्राप्स्यमानाम् 12 जानाम् 70 कोटीनाम् च रूप्यकाणाम् सौविध्यपूर्णाम् ऋण सहायताम् जापान सर्वकारात् तराई क्षेत्रस्य पूर्वभागस्थिताय सिंचन प्रणाली पुनस्थापना योजनायै प्राप्स्यमानाम् 2 अब्ज 23 कोटीनाम् 64 लक्षाणाम् च रूप्यकाणाम् अनुदान सहायताम् च स्वीकर्तुम् निर्णीतमिति प्रवक्ता मन्त्री कार्की अकथयत्। उपवेशेन एतद् आर्थिक वर्षस्य कृते विभिन्नानाम् मन्त्रालयानाम् अन्तर्गतानाम् राजपत्राङ्कित श्रेण्याः अस्थायी कर्मचारिणाम् पदसंख्या स्वीकृता वर्तते। उपवेशेन सप्तकोशिकी नद्याम् दुरापन्नेन जलविप्लवेन प्राप्त क्षतीन् भूभागान् विपत् संकटग्रस्त क्षेत्रम् उद्घोष्टुम् एतद् विक्रम वर्षीयाम् राष्ट्रिय क्रीडा प्रतियोगिता संचालन प्रथम संशोधन निर्देशिकाम् स्वीकर्तुम् नसिम रायन इत्यस्य नाम्नि दत्ताम् नागरिकताम् निरस्य नेपाली नागरिकात् अपाकर्तुम् च निर्णीतमिति प्रवक्ता मन्त्री कार्की ज्ञापितवान्। एवमेव उपवेशेन आईटीयू संघस्य आयोजनायाम् आश्विनस्य 10 दिवसात् 28 दिवसम् यावत् रोमानिया देशस्य बुखारेस्ट स्थाने संचालयिष्यमाणे कार्यक्रमे सहभागितायै संचार सूचना प्रविधि मन्त्रिणे संयुक्त राष्ट्रसंघस्य आयोजनायाम् भाद्रस्य 7 दिवसात् 9 दिवसम् यावत् थाईलैण्ड देशस्य बैंकक स्थाने आयोक्ष्यमाणे कार्यक्रमे सहभागितायै राष्ट्रिय योजनायोगस्य सचिवाय च स्वीकृतिम् प्रदातुम् निर्णीतम् वर्तते। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन विधेयकद्वयम् पारितकृतम् वर्तते। भौतिक पूर्वाधार यातायात व्यवस्था मन्त्रिणा मोहम्मद इस्तियाक राई इत्यनेन प्रस्तुतम् 67-अधिक-2000 विक्रम वर्षीयम् नगरीय क्षेत्र सार्वजनिक यातायात व्यवस्था प्राधिकरण विधेयकम् अर्थमन्त्रिणा जनार्दन शर्मणा प्रस्तुतम् अर्थसमितेः प्रतिवेदनेन सहितम् एतत् विक्रम वर्षीयम् सुरक्षण कोष विधेयकम् च पारितकृते स्तः। तत्पूर्वम् सुरक्षण विधेयकस्य विषये सांसदैः विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री शर्मा अगदत् पुनः सुरक्षण कोषः सरलीकृतोऽस्ति। सुरक्षण कोषस्य वित्तम् प्रदेशेषु अपि याचितुम् शक्यते। सुरक्षण कोषः सुदूर ग्राम पर्यन्तम् च प्रापयिष्यते। एवमेव मन्त्री शर्मा 67-अधिक-2000 विक्रम वर्षीयम् सार्वजनिक ऋण व्यवस्थापन विधेयकम् आश्रित्य उत्थापितान् प्रश्नान् उत्तरयन् अवोचत् ऋण व्यवस्थापनाय ऋणस्य पारदर्शितायै च विधेयकमिदं महत्वपूर्णं वर्तते। प्रतिनिधिसभायाः अपरोपवेशः श्व मंगलवासरे पूर्वाह्नस्य 11 वादने वस्ता। प्रतिनिधिसभायाः ह्यस्तन द्वितीयोपवेशः विधेयकं पारितीकर्तुम् आवश्यक गणपूरक संख्याया अभावेन स्थगितीकृतः आसीत्। नेपाल मजदूर किसान पार्टी दलस्य सांसदेन प्रेम सुबालेन उपवेशे गणपूरक संख्यायाः प्रश्नस्य उत्थापनानन्तरं सभामुखेन अग्निप्रसाद सापकोटा विधेयकं 12.5 घण्टावादनं कृत्वा गणनायै निर्दिष्टम् आसीत्। प्रधानमन्त्रिण सर्वदेवाभिधेन सह सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्रिण त्रिलोचन भट्टस्य नेतृत्वस्य समूह ह्यो मेलवार्ताम् अकरोत्। बालवाटारवर्तिनी प्रधानमन्त्री निवासे सम्पन्नायाः मेलवार्तायाः क्रमे प्रधानमन्त्री देववा प्रदेशस्य समग्र विषयेषु विज्ञापित इति आन्तर विषय विधि मन्त्री रणबहादुर रावलः अवदत्। प्रधानमन्त्री शेरबहादुर देउवा नेपाल सर्वकारस्य कृषि समीकरणां च मध्ये विहितां दशसूत्रीय सहमतिं क्रियान्वेतुम् अभियाचितो वर्तते। मुक्त कृषि श्रमिक विकास मञ्चस्य अग्रेसरतायं गतेन प्रतिनिधिमण्डलेन बालवाटार वर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणं देउवाभिधं मिलित्वा कृषि श्रमिकाणां समस्याः सम्बोधयितुम् अनुरुद्धमिति मञ्चस्य संस्थापकाध्यक्ष मञ्जिता चौधरी अज्ञापयत। तदवसरे प्रधानमन्त्री देउवा समस्यानां समाधान तत्कालं अन्तर्गताः निकायाः निर्दिश्यन्ते इति समाश्वासयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेपाल समाजवादी दलस्य अध्यक्षस्य डाक्टर बाबुराम भट्टराई इत्यस्य च मध्ये आगामिनो निर्वाचनस्य विषये विमृष्टमस्ति। अध्यक्षद्वयस्य प्रचण्डस्य डाक्टर भट्टराई इत्यस्य च मध्ये ह्य एकेनैव निर्वाचन चिन्हेन आगामिनि निर्वाचने स्पर्धितुं सहमति धृत्यति। डाक्टर भट्टराई इत्यस्य स्वकीय सचिव रोशन पोखरेल ज्ञापितवान्। विमर्शने माओवादी केन्द्रस्य नेपाल समाजवादी दलस्य मध्ये एकेनैव निर्वाचन चिन्हेन संयुक्त घोषणा पत्रेण च आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत् समाने प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचने भागं ग्रहीतुं सहमति धृतेति स्वकीय सचिव पोखरेल अबोधयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली संविधानेन विहितायाः व्यवस्थायाः अनुसारेण आगामिनि निर्वाचने क्षमतावतीभ्यो महिलाभ्यः स्वस्य दलेन अवसरः प्रदास्यते इति कथयति। ह्यः काष्ठमण्डपे आयोजिते युवभि सह अन्तर्क्रिया कार्यक्रमे अध्यक्ष ओली प्रतिशतं त्रयस्त्रिंशतो महिलानाम् आगामिनि निर्वाचने विजयस्य सुनिश्चयनम् करिष्यति इति स्पष्टीकृतवान्। अध्यक्ष ओली अधुनावधि आत्मना सम्बन्धवादात् कृपावादाच्च दूरे स्थितमित्यतः सर्वेभ्यः समानरूपेण अवसरः प्रदीयते इति समाश्वासयत्। असौ सर्वकारेण प्रविधिम् उपयुज्य युवभ्यः नेपाले एव कृष्युत्पादनशील क्षेत्रे वृत्त्युपार्जनाय बलं प्रादात्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल गदति आगामि निर्वाचने गठबन्धनेन कांग्रेस दलाय लाभो वर्तते। ह्य नेपाल प्रेस युनियन संघस्य चितवन शाखाया भरतपुर विमानस्थले आयोजिते पत्रकार सम्मेलने वरिष्ठ नेता पौडेल अवोचत गठबन्धनम् कांग्रेस दलाय अद्यतनी आवश्यकता वर्तते। नेता पौडेल अधुना स्थानानां विषये कोऽपि निर्णय वितो नास्तीति ज्ञापितवान् इति समाचारः।